तृतीय स्कंद
षड्विंशोध्याय महदादि भिन्न भिन्न तत्वों की उत्पत्ति का वर्णन। श्री भगवान वाच अथ ते संप्रवक्ष्यामि तत्वानां लक्षणं पृथक जद विदित्वा विमुच्यते पुरुष प्राकृत गुण ही ज्ञानम निःसरेश अर्थाय पुरुष से आत्मदर्शनम जदाहुर्वर्ण तत्ते हृदय ग्रंथि भेदनम अनादिरात्मा पुरुषो निर्गुण प्रकृत पर प्रत्येक धाम स्वयं ज्योतिर्विश्व जैन समन्वित स एष प्रकृति सूक्ष्म दैवीं गुणमयीं विभु जद्रीक्षाईपगता अभ्यपद्यति लीलया गुणैर्विचित्राश्रियतीं स्वरूपा प्रकृतिं प्रजा विलोक्य मुमुहे सद्य स इह ज्ञान गुहया एवं पराभिध्यानेन कर्तृत्वं प्रकृते पुमान कर्म सुक्रियमाणेषु गुणैरात्मनि मन्यते तदस्य संसतिर्बन्ध पारतन्त्र्यं च तत्कृतं भवति कर्तुरीशस्य साक्षिणो निर्वृतात्मनः कार्यकारण कर्तृत्वे कारणं प्रकृतिं विदुः भोक्तृत्वे सुख दुःखानां पुरुषं प्रकृतेः परम् देवहूतिर्वाच प्रकृते पुरुषस्यापि लक्षणं पुरुषोत्तम ब्रूहि कारणयोरस्य सदसच्च जदात्मकम् श्रीभगवान् वाच यत् त्रिगुणम् अव्यक्तं नित्यं सदसदात्मकं प्रधानं प्रकृतिं प्राहुर विशेषं विशेषवत् पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिः दशभिस्तथा एतत् चतुर्विंशतिकं गणं प्राधानिकं विदुः महाभूतानि पञ्चैव भूरापोग्निर्मरुनभः तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे इन्द्रियाणि दशश्रोत्रं त्वग्दृग्रसरनाशिका वाक्करौ चरणो मेढ्रं पायुर्दशमम् उच्यते मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण रूपया एतावान्नेव संख्यातो ब्रह्मणस्य गुणस्य सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः प्रभावं पौरुषं प्राहु कालमेकेजतो भयम् अहंकार विमुढस्य कर्तुः प्रकृतिमीयुषः प्रकृतिर्गुणसाम्यस्य निर्विशेषस्य मानवी चेष्टा जतः स भगवान् काल इत्युपलक्षितः अन्तःपुरुषरूपेण कालरूपेण यो बहिः समन्वेत्येष सत्त्वानां भगवानात्मा या दैवाच्युतधर्मिण्यां स्वस्यं जनौ स्परः पुमान् आधत्तवीर्यं शाश्वत महत्तत्त्वं हिरण्मयं विश्वमात्मगतं व्यञ्जनकूटस्थो जगदङ्कुरः स्वतेषापि वत्तीव्रम् आत्मप्रस्वापनं तमः यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् जदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकं स्वच्छत्वमविकारित्वं सन्तत्वमिति चेतसः वृत्तिभिर्लक्षणं प्रोक्तं यथापं प्रकृतिः परा महत्तत्त्वाद्विकुर्माणात् भगवद्वीर्यसम्भवात् क्रियाशक्तिरहङ्कारस्त्रिविधा समुपद्यत वैकारिकस्तैशतांशश्च जतो भव मनसश्चेन्द्रियाणां च भूतानां महतामपि सहस्रशिरसं साक्षात् जमनन्तं प्रचक्षते संकर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयं कर्तृत्वं कारणत्वं च कार्यत्वं चेति लक्षणं चान्तघोरविमुढत्वम् इति वा स्यादहं कृते वैकारिकाद्विकुर्माणा मनस्तत्त्वमजायत यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः जद्विदुर्यनिरुद्धाख्यं हर्षिकाणामधीश्वरं सारदेन्दिवरश्यामं सन्दाध्यं योगिभीषणैः तैश्चास्तु विकुर्माणाद्बुद्धितत्त्वमभूत् सति द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रह संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् तैषानिन्द्रियाणेव क्रिया ज्ञानविभागशः प्राणस्य हि क्रियाशक्तिर्बुद्धिर्विज्ञानशक्तिता तांसा च विकुर्माणात् भगवद्वीर्यचोदितात् शब्दमात्रमभूत् तस्मान्नभश्रोत्रं तु शब्दगम् अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः भूतानां छिद्रदातृत्वं बहिरन्तरमेव च प्राणेन्द्रियात्मधिष्णुत्वं नभसो वृत्तिलक्षणम् नभसा शब्द तन्मात्रात् कालगत्या विकुर्वतः स्पर्शो भवत ततो वायुस्त्वक् स्पर्शश्च संग्रह मृदुत्वं कठिनत्वं चाश्रयत्वं उष्णत्वमेव च एतत् स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयः सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् वायोश्च स्पर्श तन्मात्रादिरूपं दैवेरितादभूत् समुत्थितं ततस्तेजश्चक्षुरूपलम्भनम् द्रव्यकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च तेजस्त्वं तेजसहसाध्विरूपमात्रस्य वृत्तयः द्योतनं पचनं पानम् अदनं हिन्मर्दनम् तेजसो वृत्तिस्त्वेता शोषणं श्रुतिर्देवच्च रूपमात्राद्विकुरणात् तेजसो दैवचोदितात् रसमात्रमभूतस्मादम्भो जिह्वा रसग्रह कषायो मधुरस्तिक्तकट्वम्ल इति नैकधा भौतिकानां विकारेण रस एको विभिद्यते क्लेदनं पिण्डनं तृप्ति प्राणान् आप्यायनोन्दनम् तापापन्नोदो भूयस्त्वमम्भसो वृत्तयस्त्विमहान् रसमात्राद्विकुर्माणाद् अम्भसो दैवचोदितात् गन्धमात्रमभूतस्मात् पृथ्वी घ्राणस्तु गन्धगः करम्भपूतिसौरभ्य सन्तोग्रम्लादिभिः पृथक् द्रव्यावयव वैषम्यात् गन्ध एको विभिद्यते भावनं ब्रह्मणस्थानं धारणं सद्विशेषणं सर्वसत्त्वगुणभेद पृथ्वीवृत्तिलक्षणम् नभसो गुण विशेषर्थो जस तत्स्रोत्रमुच्यते वायुर्गुण विशेषर्थो जस तत्स्पर्शनं विदुत् तेजोगुण विशेषर्थो जस्य तच्चक्षुरुच्यते अम्भोगुण विशेषर्थो जस्य तद्रसनं विदु भूमिर्गुण विशेषर्थो जस्य सघ्राण उच्यते परस्य दृश्यते धर्म ह्य परस्मिन् समन्वयात् अतो विशेषो भावानां भूमावेवोपलक्ष्यते एतान्यसंहत यदा महदादीन सप्त वै कालकर्म गुणोपेतो जगदादिरूपाविशत् ततस्तेनानुविद्येभ्य युक्तेभ्याण्डमचेतनम् उत्थितम् पुरुषो यस्मादुदतिष्ठ दशौ विराट् एतदण्डम् विशेषाख्यम् क्रमवृद्धर्दशोत्तर त्वयाद्भि परिवृतम् प्रधानेनावृतैर्बहिः यत्र लोकवितानोऽयम् रूपम् भगवतो हरेः हिरण्मयादण्डकोशात् उत्थाय सलिलेशयात् तमाविश्य महादेवो बहुधा निर्विभेदखम् निर्भिद्यतास्य प्रथमं मुखं वाणीं ततो भवन् वाण्या वहनी रथोन्नाशे प्राणवतो घ्राण एतयोः घ्राणात् वायुरभिद्येतामक्षणी चक्षुरेतयोः तस्मात् सूर्यो व्यभिद्येताम् कर्णौ श्रोत्रं ततो दिशः निर्विभेद विराजस्त्वमश्रवादयस्ततः ततोषधयश्चासन् शिष्णम् निर्विविधे ततः रेतस्तस्मादाप आसन् निर्भिद्य त्वयि गुदम् गुदादपानोऽपान च मृत्युर्लोकभयङ्करः हस्तौ च निर्भिद्येताम् बलम् ताभ्याम् ततः स्वराट् पादौ च निर्भिद्येताम् गतिस्ताभ्याम् ततो हरिः नड्यस्य निर्भिद्यन्तस्ताभ्यो लोहितमाभृतम् नद्यस्ततः समभवान् उदरम् निर्भिद्यत क्षुत्पिपासे ततः स्यातम् समुद्रस्त्वेतयोरभूत् अथास् हृदयम् भिन्नम् हृदयान्मन उत्थितम् मनश्चन्द्रमा जातो बुद्धिर्बुद्धिर्गिराम् पतिः अहङ्कारस्ततो रुद्रश्चित्तम् चैत्यस्ततो भवत् एते यभ्युथिता देवा नैवास्योत्थापने शकन् पुनरावसुखानि तमुत्थापयितुम् क्रमात् वहनिर्वाचा मुखम् भेजे नोदतिष्ठ तदा विराट् घ्राणेन नासिके वायुर्नोदतिष्ठ तदा विराट् अक्षिणी चक्षुषादित्यो नोदतिष्ठ तदा विराट् श्रोत्रेण कर्णौ च दिशो नोदतिष्ठ तदा विराट् त्वचम् रोमभिरोषध्यो नोदतिष्ठ तदा विराट् रेतसा शिष्णमापस्तु नोदतिष्ठ तदा विराट् गुदम् मृत्युरपानेन नोदतिष्ठ तदा विराट् हस्तौ इन्द्रौ बलेनैव नोदतिष्ठ तदा विराट् विष्णुर्गत्यैव चरणौ नोदतिष्ठ तदा विराट् नाडीर्नद्यो लोहितेन नोदतिष्ठ तदा विराट् क्षत्रियभ्याम उदरम सिंधुर नोदतिष्ठ तदा विराट, हृदय मनसा चंद्रो नोदतिष्ठ तदा विराट, बुद्ध्या ब्रह्मापि हृदयम नोदतिष्ठ तदा विराट, रुद्रोभिमत्या हृदयम नोदतिष्ठ तदा विराट, चित्तेन हृदयम चैत्य क्षेत्रज्ञः प्राविशत तदा विराट, तदैव पुरुष सलिला दुदतिष्ठत, यथा प्रसुत्तम पुरुषम प्राणेन्द्रिय मनोधिय प्रभुवन्ति विना जिनन्नत्थापयितुमोजसा, तस्मिन् प्रत्यगात्मानं धिया योग प्रवृत्तया भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्। इति श्रीमद्भागवते महापुराणे परमहंस्याम संहितायां तृतीय स्कंधे कापिलेये तत्त्वसमाम्नाय षड्विंशोऽध्यायः।